एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। राष्ट्रियसभायाः ह्यस्तनोपवेशन मर्यादित रजस्वलाभावस्य कृते मासिक धर्मविभेदस्य अन्तसम्बद्ध संकल्प प्रस्तावः पारितीकृतोऽस्ति। उपवेशे राष्ट्रियसभायाः अध्यक्षः नारायण प्रसाद दाहालः सभया पारितीकृतस्य मर्यादित रजस्वलाभावस्य कृते मासिक धर्मविभेदस्य अन्तसम्बद्ध संकल्प प्रस्तावस्य क्रियान्वयनाय सर्वकारं निरदिशत्। उपवेशे सांसदेन मदन कुमारी शाह इत्यनया प्रस्तावोऽसौ प्रस्तुतः आसीत् चेत् सांसदै सुमित्रा विसी, गंगा कुमारी बेलवासे, विष्णु कुमारी सापकोटा, पूजा चौधरी, डाक्टर अंजान शाक्ये इत्येताभिः समर्थितः आसीत्। यसायं पञ्चवादनाय निर्धारितः राष्ट्रियसभायाः द्वितीयोपवेशः सूचनां प्रकाश्य स्थगितोऽस्ति। संघीय संसद सचिवालयस्य महासचिवेन पद्मप्रसाद पाण्डेयविधेन विशेष कारणेन निर्धारिते समये उपवेशः न सम्भूतः इति ज्ञापितमस्ति। राष्ट्रियसभायाः नियमावल्याः प्रतिनिधिसभा नियमावल्याश्च परस्परं बाधितत्वात् राष्ट्रियसभायाः ह्यस्तनोपवेशः पञ्चदशकलानां कृते स्थगितः, तदनु त्रिवादनाय निर्धारितः उपवेशः पुनः स्थगितीकृतः आसीत्। ह्यः निर्धारितसमये उपवेशः न सम्भूतः, अतः उपवेशः श्वः रविवासरे दिवासपाद द्वादशवादनाय आहूतोऽस्ति इति संघीय संसद सचिवालयस्य महासचिवः पद्मप्रसाद पाण्डेयः अज्ञापयत्। प्रधानमन्त्री केपी शर्मा ओली राष्ट्रियोत्पादनानां प्रयोगं कृत्वा देशम् आत्मनिर्भरं सम्पादयितुं च बलं ददाति। नेपालोद्योग व्यवसायी महासंघस्य तृतीयं महाधिवेशनं ह्य उद्घाटयन् प्रधानमन्त्री ओली स्वदेशीय वस्तूनां प्रयोगाय सर्वकारेण प्रोत्साहनं प्रदीयते इति प्रावोचत्। प्रधानमन्त्री ओली औद्योगिक क्षेत्रस्य विकासाय विधौ प्रणाल्यां च सुधार विषयान् परामृष्टुम् अनुरुन्धान तेषां क्रियान्वयनाय सर्वकारेण ध्यानं दीयते इति प्रावोचत्। श्रम व्यवसायजन्य सुरक्षा विभागेन अप्राप्तानुमतिभ्यः श्रमिकापूर्ति कर्तृभ्यः संस्थानेभ्यः श्रमिकाणाम् आपूर्तिं न कर्तुं सर्वेषां प्रतिष्ठानानां नाम्नि सूचना प्रकाशिता वर्तते। सर्वकारीयनिकायैः सार्वजनिक संस्थानैः निजक्षेत्रस्य प्रतिष्ठानैश्च अप्राप्तानुमतिभ्यः श्रमिकापूर्तिकर्तृभ्यः संस्थानेभ्यः अवैधानिकरूपेण श्रमिकाणाम् आपूर्तिः विधीयमानास्तीति निवेदनस्य प्राप्तेरनन्तरं विभागेन प्रतिष्ठानानां ध्यानाकर्षणं विहितं वर्तते। विभागेन श्रमाधिनियमस्य विपरीततया कथं विधानि अपि कार्याणि न कर्तुं न कारयितुं च सर्वे अनुरुद्धा वर्तन्ते। जलोर्जसायोगस्य सचिवालयस्य राष्ट्रिय सिंचन जलोपभोक्तृ महासंघस्य च आयोजनायाम् अद्यतः प्रथम राष्ट्रिय जल सम्मेलनम् आयोज्यमानम् वर्तते। ह्यः आयोजिते संयुक्त पत्रकार सम्मेलने जल सम्बद्ध संघ संस्थानां सहकारेण अद्य स्वस्य प्रथमवारं राष्ट्रिय जल सम्मेलनम् आयोज्यमानमस्ति इति ज्ञापितम् वर्तते। आयोगस्य सचिवः मधुप्रसाद भेटवालः सर्वकारेण जलम् उच्च प्राथमिकतायां संस्थाप्य विभिन्नाः गुरु योजनाः निर्मीयमाणाः सन्ति इति असूचयत्। सचिवः भेटवालः नेपालस्य एकविंशति हिमरदाः विस्फोटनस्य संकटे वर्तन्ते इति चर्चयन् हिमरदानां संरक्षणाय आयोगः तत्परोऽस्ति इति अभाषत। दिनद्वयं यावत् संचाल्यमाने सम्मेलने जलस्य बहुपयोगस्य महत्वस्य स्रोतसंरक्षणस्य च विविधेष् विषयेष् विमृक्ष्यते इति आयोगस्य प्रवक्ता कलानिधि पोड्यालः असूचयत्। हिमनदीनां संरक्षणमिति मूलसमाघोषेण अद्य आविश्वं जलदिवसः समायोज्यमानोऽस्ति। पश्चात्तनदिनेषु जलवायोः परिवर्तनस्य कारणेन हिमनदीनां शुष्कतायाः समये मानवजीवने समग्र प्रकृतौ च समाहोयः वर्धितोऽस्तीति अनुभवं कृत्वा वर्षेऽस्मिन् जलदिवसस्य मूलसमाघोषः एव हिमनदीनां संरक्षणमिति निर्धारितोऽस्ति। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः राजनीतिक स्थायित्वं विना आर्थिक समृद्धिः विकासश्च न सम्भवतः इत्युक्तवान् अस्ति। जनतया सह माओवादी दलमिति समा घोषेण आयोज्यमानस्य तराई मधेश जागरणाभियानस्य अन्तर्गतम् ह्य वीरगंज नगरे आयोजिते अन्तर्क्रिया कार्यक्रमे अध्यक्षः प्रचण्डः राजनीतिक स्थायित्वाय प्रयुक्तानां विधीनां पद्धतीनां च त्रुटेः कारणात् समस्या उत्पन्ना अस्तीति अगदत्। अध्यक्षः प्रचण्डः देशे दीर्घकालानन्तरं प्राप्तस्य संघीय लोकतान्त्रिक गणतन्त्रस्य संस्थागत विकासस्य अभावेन जनतायां नैराश्यं वर्धमानम् अस्तीति उदैरयत्। परराष्ट्रमन्त्री डॉ आरजू राणा स्वकीयं भारत भ्रमणं कूटनीतिक सम्बन्धस्य विस्ताराय फलदायी सम्भूतम् अस्तीति उक्तवती अस्ति। भारतस्य विदेश मन्त्रालयेन राजधान्यां नवदेहल्याम् आयोजिते रायसीना डायलॉग इति कार्यक्रमे भागं गृहीत्वा ह्य स्वदेशं प्रत्यागवर्तनानन्तरं त्रिभुवनान्तरराष्ट्रिय विमानस्थले पत्रकारै सह परराष्ट्रमन्त्री डॉ राणा भारतेन सदैव नेपालस्य लोकतान्त्रिक प्रणाल्यां विश्वासः विधीयते इति समस्पष्टयत्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री प्रसाद पाण्डेय निगदति लुम्बिनी क्षेत्रं बौद्धमार्गिणाम् आस्थायाः केन्द्रेण सहैव विश्वशान्ति पर्यटनस्य केन्द्रं वर्तते। द्वितीयस्य लुम्बिनी अन्तर्राष्ट्रिय शान्ति महोत्सवस्य अन्तर्राष्ट्रिय ध्यान महोत्सवस्य च उद्घाटन समारोहे पूर्वेद्युः मन्त्री पाण्डे बुद्ध जन्मस्थल लुम्बिन्या सह सम्बद्धानां तिलौराकोट देवदह रामग्राम नगराणां विश्वशान्ति नगरत्वेन विकासार्थं बलं प्रादात्। लुम्बिनी विकासकोषस्य उपाध्यक्षः डॉ लालकेल्लामा लुम्बिनी क्षेत्रं बुद्धस्य ध्यानस्य कृते विश्वस्य उत्कृष्टं स्थलमस्तीति उदैरयत्। नेपाल पर्यटन समितेः कार्यकारिधिकृतः दीपक राज जोशी लुम्बिन्यां संचल्यमानेन शान्ति महोत्सवेन पर्यटन प्रवर्धनाय महत्वपूर्णं योगदानं विधीयते इति प्रावोचत्। कार्यक्रमे नेपालस्य कृते चीनदेशस्य राजदूतः चेन सुङ चीनदेशेन नेपालेन सह दृढं सम्बन्धं विधातुं पवित्रस्थले लुम्बिनी क्षेत्रे द्वितीयवारं लुम्बिनी अन्तर्राष्ट्रिय शान्ति सम्मेलनम् आयोजितमस्तीति अगदत्। उद्घाटनस्य अवसरे मायादेवी मन्दिरोद्याने एकशतस्य भिक्षुणां चतुश्शतस्य साधकानां च सहभागितायां ध्यानं संचालितम् आसीत्। पर्वत जनपदस्य विहारी ग्रामपालिकायाः द्वितीयवडा क्षेत्रस्य बर्राचौरस्थाने निर्माणाधीन चिकित्सालयः पञ्चभ्य वर्षेभ्य असहायावस्थायां वर्तते। विकटवर्ति क्षेत्राणां नागरिकेभ्य सर्वसुलभ स्वास्थ्य सेवाया प्रदानस्य उद्देश्येन प्रारब्ध निर्माणः चिकित्सालयः निर्माण व्यवसायिनः विलम्बनस्य कारणेन अस्तव्यस्तावस्थायां वर्तते।